ग्रावाणेवतदिदर्थम् जरेथे गृध्रे एव वृक्षम् निधिमन्तमच्छ ब्रह्माणे एव विदथ उक्थशासा दूते बहव्याजन्या पुरुत्रा प्रातर्यावाणारथे एव वीराजे वयमावरमासचेथे मेने इव तन्वा आशुम्भमाने दम्पतीवक्रतुपिता जनेषु शृङ्गे एव नः प्रथमागन्धमर्वाक्षफाविभजर्भुराडातरोभिः चक्रवाके वप्रतिपस्तोरुस्रार्वाञ्च अजातम् रथे एव शक्रा नावेव नः पारयतञ्जुगे वनभ्ये एव न उपधीव प्रधीव श्वाने एव नो अरिषण्यातनूनाम् खृगदेव विस्रसः पादमस्मान् वाते एवाजुर्या नद्ये एव रीतिरक्षि इव चक्षुषा जातमर्वाक् हस्ताविव तन्वे शम्भविष्ठा पादे एव नो नयतम् वस्यो अच्छ ओष्ठाविव मध्वास्ने वदन्तास्तनाविव पिप्यतम् जीवसे नः नासे एव नस्तन्वो रक्षिता राकर्णाविव सुश्रुता भूतमस्मे हस्ते एव शक्तिमभिसम् ददीनः क्षामे एव नः समजतम् रजांसि इमा गिरो अश्विना युष्मयन्ति हि क्ष्णोत्रेणेव स्वधितिम् संशिषेताम् एतानि वामश्विना वर्धनानि ब्रह्मस्तोमम् गृत्समदासो अक्रन्न तानि न राजुजुषाडोपजातम् बृहत्वदेव विदथे सुवीराः